शनैश्चराय विद्महे छायापुत्राय धीमहि तन्नो मन्दः प्रचोदयात्। अस्य श्रीशनैश्चरकवचमहामन्त्रस्य कश्यप ऋषिः अनट्टुच्छन्दः शनैश्चरो देवता शं बीजम् नम् शक्तिः मम् कीलकम् मम शनैश्चरप्रसादसिद्ध्यर्थे जपे विनियोगः। चतुर्भुजम् शनिम् देवम् चापदूणीकृपाणकैः सहितम् वरदम् भीम दंशम् नीलोत्पलाकृतिम् नीलमाल्यानुलेपम् च नीलरत्नैरलङ्कृतम् ज्वालोत्तमकुटाभासम् नीलकृद्धरथान्वितम् मेरुम् प्रदक्षिणम् यान्तम् सर्वलोकभयावहम् कृष्णाम् वरदरम् देवम् विभुजम् कृद्धसंस्थितम् सर्वपीडाहरम् नृणाम् ध्यायेद्ग्रहगणोत्तमम्। शनैश्चरशिरो रक्षेत् मुखम् भक्ताग्निनाशनः कर्णो कृष्णाम् परः पातु नेत्रे सर्वभयङ्करः। कृष्णाङ्गोनादिकाम् रक्षेत् कण्ठम् मे शितिकण्टकः। भुजो मे सुभुजः पातु हस्तौ नीलोत्पलप्रभः। पातु मे हृदयम् कृष्णः कुक्षिम् शुष्कोदरस्तथा। कटिम् मे विकटः पातु ऊरु मे घोररूपवान्। जानुनी पातु मे दीर्घो जङ्घे मे मङ्गलप्रदः। कुल्पो गुणकरः पातु पादौ मे पङ्गुपादकः। सर्वाणि च ममाङ्गानि पातु भास्करनन्दनः। यजिदम् कवचम् दिव्यम् सर्वपीडाहरम् नृणा पठति श्रद्धया युक्तः सर्वान् कामानवाप्नुयात्।